इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झा. अथ वार्ताः. संसदा सूक्ष्म लघु मध्यमोद्यम विकास संशोधन विधेयकम् 20-26 पारितम्. लोकसभया एतद् ह्यः अनुमोदितम्. राज्यसभया च सोमवासरे एव पारितम्. विधेयकस्यास्य उद्देश्यमस्ति धनदाने विलम्बनस्य निवारणम्, विवादसमाधानस्य च सरलीकरणम्. अस्य विधेयकस्य अनुसारं प्रत्येकः केन्द्रीय सार्वजनिक क्षेत्रोपक्रमः व्यापार प्राप्य विपणन व्यवस्थायाः अन्तर्गतं सूक्ष्म लघु मध्यमोद्यमेभ्यः वस्तूनां सेवानां वा क्रयण सम्बद्धानां सर्वेषां देयानां निस्तारणं करिष्यति. विधेयकानुसारं विवाद स्थितौ मध्यस्थता विफला भवति चेत् तस्यै सन्दर्भः मध्यस्थतायाः समाप्तेः दिनांकात् 30 दिनाभ्यन्तरे एव करणीयः. नीट सम्बद्धे छात्रान्दोलने कथितारक्षकैः कृतकार्याणि सहितेषु विविध विषयेषु विपक्षस्य कोलाहलकारणात् संसदः उभयोः सदनयोः कार्याचरणं पुनरपि बाधितम्. विपक्षसदस्यानां निरन्तरविरोधकारणात् उभयोः सदनयोः कार्याचरणं भोजनावकाशात् पूर्वमेव स्थगितम्. विपक्षस्य कोलाहलकारणात् उभयोः सदनयोः प्रश्नकालः अपि न प्रवर्तितः. प्रधानमन्त्री नरेन्द्रमोदी अद्य भारतीय प्रौद्योगिकी संस्थानस्य 57वं दीक्षांत समारोहं सम्बोधयिष्यति. समारोहेऽस्मिन् असौ विद्यावारिधि शोध छात्रेभ्यः सह 3,000+ छात्रान् सम्बोधयिष्यति. अस्मिन् प्रसंगे सः मेधावीभ्यः विविध स्वर्ण पदकानि प्रदास्यति. सहैव सोनीपत परिसरे परम प्रज्ञा इति कृत्रिम बुद्धि आधारित सुपर कम्प्यूटर इति संगणक विशेषस्य आभासीय माध्यमेन उद्घाटनं विधास्यति. झारखण्ड राज्यस्य जेपीएससी जेएसएससी अथ अन्यासामपि प्रतियोगी परीक्षाणां विवादः अद्य विधानसभायां चर्चितः. झारखण्ड विधानसभायाः प्रावृष सत्रस्य द्वितीये दिने विपक्षेण एषः विषयः समुत्थापितः. सहैव परीक्षाणां निरस्तीकरणस्य सीबीआई निरीक्षणस्य च याचना विहिता. प्रशासनपक्षतः संसदीय कार्यमन्त्रिणा स्पष्टीकृतं यत् प्रशासनमस्य प्रश्नस्य उत्तरं दातुं सर्वथा तत्परो विद्यते. विदेशमन्त्री डॉ एस जयशंकरः न्यगादीत् यत् पाकिस्तानदेशेन सह भारतस्य सम्बन्धाः केवलं आतंकवादमुक्तौ एव अग्रेसारयितुं शक्यन्ते. अद्य लोकसभायाम् एकस्मिन् लिखितोत्तरे डॉ जयशंकरः स्पष्टीकृतवान् यत् पाकिस्तानः अद्यापि अतिसीम्नि भारतं विरुध्य आतंकवादं अस्त्ररूपेण उपयुङ्क्ते. मन्त्री अब्रवीत् यत् पुलवामा आतंकी आक्रमणानन्तरं भारतेन पाकिस्तानदेशाय प्रदत्तम् अतिवरीयान् राष्ट्रस्य इति प्रत्याहृतम्. सहैव ततः आयातितानां सर्वेषां वस्तूनामुपरि सीमाशुल्कं 200% यावत् वर्धितम्. भारतं भारतीयानां जलपूतानां नाविकानां च सुरक्षां संरक्षां च प्रति अत्यधिकं प्राधान्यं ददाति. विदेशमन्त्रालयस्य प्रवक्ता रणधीरजयसवालः ह्यः नवदिल्ल्यां वार्ताहरान् एतत् संसूचितवान्. सः अवोचत् यत् खातीक्षेत्रेषु स्थिताः सर्वे भारतीयोपक्रमाः सम्बद्धदेशानां पत्तनपोत परिवहन जलमार्ग मन्त्रालयेन सह निरन्तरं सम्पर्के सन्ति. सः अवोचत् यत् भारतम् अन्ताराष्ट्रिय जलमार्गेषु सुरक्षितस्य निर्बाधस्य च नौसञ्चालनस्य तथा वाणिज्यस्य अबाधित प्रवाहस्य निरन्तरं समर्थनं करोति. इति वार्ताः.